भगवते वासुदेवाय। अथ नमो अध्याय श्री भगवान वाच। इदं तु ते गुह्यतमं प्रवक्ष्यामनसोऽयवे ज्ञानं विज्ञानसहितं यद्ज्ञात्वा मोक्षसे शुभा। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमाप्यम्। अश्रद्धाना पुरुष धर्मस्यास्य परं तपा अप्राप्य मां निवर्तन्ते मृत्यु संसार वर्त्मनि। मया ततम् इदं सर्वं जगत् व्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं ते स्ववस्थिता न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् भूतभृन्ना च भूतस्थो ममात्मा भूतभावना। यथाकाशस्थितो नित्यं वायु सर्वत्र गोमहा तथा सर्वाणि भूतानि मत्सानित्युपधारया सर्वभूतानि कौन्तेया प्रकृतिं यान्ति मामिकां कल्पक्षये पुनस्तानि कल्पादो विसृजाम्यहम्। प्रकृतिं स्वामवष्टभ्या विसृजामि पुनः पुनः भूतग्रामम् इमं कृत्स्नम् हवसं प्रकृतेर्वशा। न च मां तानि कर्माणि निबध्नन्ति धनञ्जया उदासीनवदासीनम् असक्तं ते सुकर्मशो। मयाध्यक्षेण प्रकृति सूयते सचराचरम् हेतुनानेन कौन्तेया जगद्विपरिवर्तते। अवजानन्ति मामूढा मानुषीं तनुमाश्रितं परं भावं अजानन्ता मम भूतमहेश्वरम्। मोघासा मोघकर्माण मोघज्ञानविचेतसा राक्षसीं मासुरीं चैव प्रकृतिं मोहिनीं श्रिता। मात्मानस्तु मां पार्था देवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसा ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहं क्रतु अहं यज्ञ स्वधाहम् अहमौषधम् मन्त्रोऽहम् अहमेवाज्यम् अहमग्निरहं हुतम् पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमोङ्कार ऋक्सां यजुरेव च गते भर्ता प्रभु साक्षी निवास शरणं सुरे प्रभवा प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहम् अहं वर्षम् निःगृह्णामुत्सृजामि च अमृतं चैव मृत्योश्च सदसचाहमर्जुन त्रैविद्या मां सोमपापुतपापा यज्ञेरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद सुरेन्द्रलोकम् अस्नन्ति दिव्यां दिवि देवभोगान् ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षिणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयधर्ममनोप्रपन्ना गतागतम् कामकामालभन्ते अनन्याश्चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमवहाम्यहम् येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेया यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रता भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि मा पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्ति उपरितं अस्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्वामदर्पणम् शुभाशुभ फले देवं मोक्षसे कर्म बंधने सन्यास योग युक्तात्मा विमुक्तो मामुपेशसि समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिया ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारा भजते माम् अनन्यभा साधुरेव समन्तव्या सम्यक् व्यवसितो हिषा क्षिप्रं भवति धर्मात्मा सस्वत् शान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्ता प्रणश्यति मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयो नया स्त्रियो वैश्यास्तथा शूद्रा तेऽपि यान्ति परां गतिम् किं पुनर्ब्राह्मणा पुण्या भक्ता राजर्षय तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व मां मन्मना भव मद्भक्ता मद्याजि मां नमस्कुरु मामेवेश्यसि युक्त्वैवम् आत्मानं मत्परायणम् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजगुह्ययोगो नाम नवमोऽध्यायः।